सर्वेभ्यो नमः. अस्माकं प्रवर्तमाना विषय अस्ति पञ्चमी विभक्ति. गतवर्गे पञ्चमी विभक्तेः प्रयोगः अस्माभिः दृष्टं, प्रयोगः दृष्टः. तत्र बहिः, भीतिः, रक्षितवान् इत्येता तादृशवाक्येषु पञ्चमी विभक्ति भवति इति ज्ञातवन्तः. अपि पूर्वं परम् इति विषये अपि पञ्चमीविभक्ति भवति इति ज्ञातवन्तः. अद्य तस्मिन् विषये एव एकां कथां पठामः. तत्र गृहपाठः अपि आसीत्, तत्र श्लोकद्वयमस्ति पुटसङ्ख्या 125 मध्ये. अपि तत्र तद् शब्दस्य, सर्वशब्दस्य अपि पञ्चमीविभक्ति, तस्य अभ्यासम् एतावत् न कृतं. तदपि कुर्मः तदनन्तरम् अग्रे तत्र तः पर्यन्तमिति, तत्रापि पञ्चमीविभक्तेः एव प्रयोगः भवति, तदपि कुर्मः. किन्तु इदानीं प्रथमतया तत्र पञ्चमीविभक्तेः रूपं कीदृशमिति पुनःस्मरणं कुर्मः. तत्र उमा भगिनी, तत्र अकारान्तपुल्लिङ्गपदं वदामि, केशवः.
केशवः
एकवचने पञ्चमीविभक्ति किम् अस्ति?
केशवात्.
केशवात् इति, हा, समीचीनम्. अस्तु, उषा भगिनी, किं भवति द्विवचने?
केशवाभ्याम्
इति अस्तु. रघुपतिमहोदय पुनरागतवान् वा भवान्? अस्तु महोदय, केशव इति पदस्य पञ्चमी विभक्ति बहुवचनम्.
केशवेभ्यः.
समीचीनम्. केशवेभ्यः समीचीनम्. अस्तु, इदानीं तत्र हरिः इति अस्ति चेत्, उषा भगिनी.
आं महोदय,
हरि
हरेः पञ्चमीविभक्ति, हरेः हरेः हरिभ्यां हरिभ्यः.
हरिभ्यः समीचीनम्. अस्तु, उमा भगिनी, तत्र गुरुः अस्ति चेत्?
गुरोः गुरुभ्यां गुरुभ्यः.
अस्तु, समीचीनम्. अस्तु, रघुपतिमहोदय, तत्र नदी.
नदी, अस्तु, नदी, नदीभ्यां
नदीभ्यः. समीचीनं महोदय, नद्याः, नदीभ्यां नदीभ्यः इति समीचीनं. मधुसूदन महोदय, नमस्कारः. मधुसूदन महोदय, श्रूयते वा? अस्तु, सः पुनः गतवान्. अस्तु अस्तु, तर्हि अत्र अहम् ईमेल् द्वारा स्मरणपत्रे तत्र कथाद्वयं प्रेषितवान्. तत्र प्रथमतया तत्र प्रथमकथां पठामः. तत्र शीर्षकः किञ्चित् क्लिष्टः अस्ति. तत्र कोऽपि जानाति वा तत्र शीर्षकः कः इति?
परमसन्तृप्तः कः?
ओ, अहं तु तत्र दृष्ट्वा किम् अस्ति इति न ज्ञात्वा पुनः सम्भाषणसन्देशः इति तत्र जालपुटे दृष्ट्वा ज्ञातवान् अस्तु, परमसन्तृप्तः कः इति शीर्षकः अस्ति इति.
न दृश्यते.
हा, किञ्चित् क्लिष्टः अस्ति. किमर्थम् एतादृश फाण्ट् स्वीकृतम्
इति?
सन्तृप्तः इति, हा, सत्यं भगिनि, सन्तृप्तः, परमसन्तृप्तः कः इति इति कथा अस्ति. अस्तु, तर्हि शुभा भगिनी, नमस्कारः. अस्तु, न श्रूयते भगिनी, अस्ति चेत् नमस्कारः. अस्तु अस्तु, तर्हि उषा भगिनी आरम्भं करोति वा तत्र कथा?
नमस्ते महोदय, श्रूयते वा इदानीं?
हा, इदानीं श्रूयते भगिनी. हा, इदानीं श्रूयते, नमस्कारः. तत्र कथाम् ईमेल् द्वारा प्रेषितवान्, तां कथां प्रथमतया पठामः.
परमसन्तृप्तः कः इति शीर्षकः अस्ति. काशीराज्ये कस्मिंश्चित् ग्रामे आसीत् सुमतिः नाम कश्चन निर्धनः दैवभक्तः परोपकारनिरतः च सः भिक्षान्नेन जीवनं निर्वहति स्म कदाचित् तस्य मनसि जिज्ञासा उत्पन्ना जीवने परमसुखी कः इति ज्ञातव्यम् इति कदाचित् अमूल्यवस्त्राभरणभूषितः कश्चन धनिकः देवालयम् आगतवान् सुमतिः तत् समीपं गत्वा अपृच्छत् भवतः जीवनं सुखमयं स्यात् ननु इति अग्रे पठामि महोदय
अग्रे अपि पठतु भगिनि
तदा सः धनिकः अवदत् मम प्रभूतम् ऐश्वर्यं तु अस्ति किन्तु सन्तानभाग्यम् एव नास्ति समीपस्थे ग्रामे धनपालः नाम कश्चन अस्ति सः सुखी स्यात् इति
धन्यवादः भगिनि अस्तु अग्रे उमा भगिनी पठति वा
वेरि गुड् हा सुमतिः धनपालसमीपम् अगच्छत् धनपालः अवदत् मम जीवने अपि सुखं नास्ति मम चत्वारः पुत्राः सन्ति प्रभूतम् ऐश्वर्यम् अपि अस्ति किन्तु ते पुत्राः न सद्गुणसम्पन्नाः
किञ्चित् क्लिष्टः अस्ति भगिनि सद्गुणाः
हा ग ग तु न दृष्टमेव
सद्गुणसम्पन्नाः इति मन्ये तत्र
सद्गुणसम्पन्नाः विद्यावन्तः च तस्मात् मम जीवनं दुःखमयं जातम् अस्ति समीपस्थे ग्रामे विद्वान् कश्चन अस्ति सः एव मत्तः अपि सुखी स्यात् इति
अस्तु भगिनि अस्तु अग्रे रघुपति महोदय पठति वा
हा महोदय सुमतिः विदुषः समीपं गत्वा अपृच्छत् किं भवतः जीवनं सुखमयम् अस्ति इति तदा विद्वान् अवदत् वेदशास्त्रादिषु मम विशेषगतिः अस्ति किन्तु राज्यसम्मानादिकं कदापि न प्राप्तं मया सम्पत्तिसुखमपि नास्ति मम जीवने एतस्य ग्रामस्य प्रमुखः सुखी स्यात् यतः सम्मानः धनम् अधिकारः च अस्ति तस्य अतः सः भक्तः अपि सुखी इति
अस्तु समीचीनं महोदय अस्तु शुभभगिनी अग्रे पठति वा
आं महोदय सुमतिः ग्रामप्रमुखं दृष्ट्वा अपि अपृच्छत् किं भवान् परमसुखी इति तदा ग्रामप्रमुखः अवदत् मम सम्मानधनाधिकारादिकं स्यात् किन्तु पत्नी पुत्रादयः अधीनाः अधिकारिणः च न मम विधेयाः तस्मात् सन्तृप्तिः नास्ति मम जीवने समीपस्थे ग्रामे सुमतिः नाम कश्चन अस्ति स तु अविवाहितः परोपकारी भिक्षान्नजीवी च अतः सः एव सुखी स्यात् इति अन्यस्य मुखात् स्वस्य प्रशंसां श्रुत्वा सुमतिः सन्तृप्तिं प्राप्य ततः निर्गतवान्
धन्यवादः भगिनी अस्तु सर्वे अवगच्छन्ति वा कथां पुनरेकवारं पठामः किन्तु पङ्क्तिशः किन्तु सा तस्मात् कः सारांशः इति अवगच्छन्ति खलु तत्र
परन्तु सुमतिः इति नाम महिलायाः नाम अस्ति न
अत्र हरिवती स्थितिः अस्ति इति मन्ये तत्र किन्तु सुमति इति सत्यं भगिनि सुमति इति वयं साधारणतया महिलायाः नाम एव इति चिन्तयामः किन्तु अत्र सुमतिः इति
पुरुषस्य
नाम इति दत्तमस्ति तद् किञ्चित् वैशिष्ट्यम् अस्ति सत्यं भगिनि सत्यं नूतनतया के के आगतवन्तः
हरि ओम् महोदय मधुसूदनः
अद्य इदानीं श्रूयते महोदय
नमस्ते महोदय
अरुणभगिनी नमस्कारः अन्य कोऽपि अस्ति वा अत्र अस्तु अस्तु तर्हि हा इदानीं तत्र पङ्क्तिशः पश्यामः. तत्र अरुणभगिनी मधुसूदन महोदय तत्र कथां पठामः यां कथां ईमेल् द्वारा अहं प्रेषितवान् तां कथां पठन् स्मः अत्र परमसन्तृप्तः कः इति तत्र प्रथमपुटे एव अस्ति तत्र पी डि एफ् मध्ये. अस्तु तर्हि तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र
श्वेतमहोदय. काशीराज्ये कश्चन ग्रामे कस्मिंश्चित् ग्रामे अस्तु कस्मिंश्चित् ग्रामे सप्तमी भक्ति आसीत् सुमती नाम कश्चन निर्धनः निर्धनः कश्चन निर्धनः इति विशेषविशेषः अस्ति ग्रामे कस्मिन् कुत्र कस्मिंश्चित् ग्रामे कस्मिन् ग्रामे कस्मिंश्चित् ग्रामे काशीराज्ये
कः निर्धनः कश्चन निर्धनः भवति अत्र
ग्रामे कस्मिंश्चित् ग्रामे
कस्मिंश्चित् ग्रामे इति भवति काशीराज्ये तदपि सप्तमीभक्ति
सप्तमीभक्ति अस्ति. दैवभक्तः परोपकारनिरतः च सः भिक्षान्नेन जीवनं निर्वहति स्म निर्वहति स्म इति स्म इति अस्ति निर्वहति भूतकालरूपम् अस्ति. भिक्षान्नेन केन भिक्षान्नेन भिक्षान्नेन भिक्षान्नेन
भिक्षान्नम् इति
भिक्षान्नं
भिक्षान्नेन भिक्षान्नं तेन जीवनं निर्वहति स्म. कीदृशः पुरुषः एषः
सः देवभक्तः परोपकारनिरतः च
दैवभक्तः
पर उपकारनिरतः
सः परोपकारं करोति केवलमस्तु नूतनवर्षः इदानीम् आगतम् अतः अहं परोपकारं करोमि इति चिन्तनं नास्ति तस्य किन्तु सर्वदा परोपकारं करोति इति कृत्वा परोपकारनिरतः तस्मिन् मग्नः
निरतः इत्युक्ते
मग्नः इति सर्वदा करोति इति अर्थे तत् विशेषणं भवति तत्र.
कदाचित् तस्य मनसि जिज्ञासा उत्पन्ना जीवने परमसुखी कः इति ज्ञातव्यम् तस्य मनसि कदाचित् अत्रापि कदाचित् उत्पन्ना किं का उत्पन्ना जिज्ञासा उत्पन्ना
तत्र उत्पन्ना अपि जिज्ञासतयोः मध्ये कः सम्बन्धः
विशेषविशेष
जिज्ञासा स्त्रीलिङ्गे अस्ति अतः उत्पन्ना इति
उत्पन्ना कुत्र तस्य मनसि इति किम् उत्पन्ना जिज्ञासा का उत्पन्ना जिज्ञासा उत्पन्ना जीवने परमसुखी कः इति ज्ञातव्यम् इति जीवने परमसुखी कः इति ज्ञातव्यं मया ज्ञातव्यम् इति तस्य मनसि जिज्ञासा उद्भवति कदाचित् अमूल्यवस्त्राभरणभूषितः कश्चन धनिकः देवालयम् आगतवान् कः आगतवान् धनिकः आगतवान् देवालयम् आगतवान् स कीदृशः धनिकः अमूल्यवस्त्र आभरणभूषितः धनिकः कश्चन धनिकः
अतः सः अमूल्यवस्त्रं
धनवान् अस्ति अतः अमूल्यवस्त्रं वस्त्रम् अपि आभरणम् अपि
तैः अत्र अमूल्यवस्त्रैः आभरणैः भूषितः
भूषितः भूषितः अलङ्कृतः
अलङ्कृतः
सः धनिकः तस्य धनिकस्य विशेषणमस्ति
समीचीनं महोदय
सुमतिः तत्समीपं गत्वा अपृच्छत् भवतः जीवनं सुखमयं स्यात् ननु इति अपृच्छत् कः अपृच्छत् सुमतिः अपृच्छत् कुत्र गत्वा तत्समीपं गत्वा गत्वा इति क्वान्तरूपमस्ति समीपं गत्वा अपृच्छत् भवतः षष्ठीभक्ति भवतः जीवनं भवतः जीवनं सुखमयं स्यात् ननु इति स्यात् ननु इति अव्ययपदमस्ति सुखमयं स्यात् इति सः
सुखमयम् इत्युक्ते
सुखमयम् इति आनन्दमयं मयमि मयं मयकृत्य अस्ति सुखेन भरितः अस्ति
केवलम् एकदा सुखम् आगच्छति सुखं दुःखं द्वयमपि अस्ति इति न किन्तु सर्वदा सुखमेव अस्ति इति
अन्धकारमय सुखमय दुःखमय
आनन्दमय अत्र सुखमयं स्यात् ननु इति सः चिन्तयति अहं निर्धनः किन्तु एषः प्रायशः सुखमयजीवनं तस्य भवति इति सः चिन्तित्वा पृच्छति समीचीनं महोदय धन्यवादः अग्रे गच्छामः तत्र सुभद्रा भगिनी अग्रे पठति वा शुभा भगिनी अग्रे पठति वा
आं महोदय तदा सः धनिकः अवदत् यदा
किञ्चित् उच्चैः पठतु भगिनि
आम् इदानीं श्रूयते वा महोदय
किञ्चित् शनैः अस्ति अस्तु इदानीं अस्तु भगिनि
तदा सः धनिकः अवदत् यदा सुमतिः धनिकं पृष्टवान् तदा धनिकः उत्तरं ददाति किं मम प्रभूतम् ऐश्वर्यं तु अस्ति मम समीपे ऐश्वर्यम् अस्ति इति वदति
कीदृश ऐश्वर्यं
प्रभूतम् ऐश्वर्यम् इत्युक्ते मोर्
बहु किमपि अस्ति इति केवलं किञ्चित् ऐश्वर्यम् इति नास्ति प्रभूतम् अस्ति इति
प्रभूतम् ऐश्वर्यं विशेषेण विशेषभावः तत्र अस्ति वा महोदय
सत्यं भगिनि कीदृश ऐश्वर्यं प्रभूतम् ऐश्वर्यं
किन्तु सन्तानभाग्यम् एव नास्ति तस्य धनिकस्य सन्तानः नास्ति समीपस्थे ग्रामे धनपालः नाम कश्चन अस्ति समीपस्थे ग्रामे इत्युक्ते समीपे यत् ग्रामम् अस्ति तस्मिन् ग्रामे एकः पुरुषः अस्ति तस्य नाम धनपालः इति सः सुखी स्यात् सः सुखम् अनुभवति सर्वदा इति चिन्तने सः
एषः वदति ऐश्वर्यं तु अस्ति किन्तु मम जीवनं सुखमयं नास्ति कस्मात् कारणात् मम जीवनं सुखमयं नास्ति किन्तु तत्र समीपस्थे समीपस्थिते इति समीपस्थिते ग्रामे तत्र समीपस्थे अपि ग्रामे तत्र सम्बन्धः कः तत्र
तत्रापि
विशेषणविशेषभावः सत्यं भगिनि समीपस्थं ग्रामम् इदानीं सप्तमी भक्ति समीपस्थे ग्रामे इति भवति तत्र अस्ति सः सुखी स्यात् इति तस्य चिन्तनम् अस्ति अस्तु किञ्चित् अग्रे अपि वाक्यद्वयं पठतु भगिनि
सुमतिः धनपालसमीपम् अगच्छत् यदा धनिकः उक्तवान् खलु धनपालः इति एकः पुरुषः अस्ति तस्य समीपं गतवान् सुमतिः धनपालः अवदत् धनपालः एवं वदति मम जीवने अपि सुखं नास्ति मम चत्वारः पुत्राः सन्ति प्रभूतम् ऐश्वर्यमपि अस्ति धनिकस्य समीपे सन्तानः नास्ति तस्य समीपे ऐश्वर्यमस्ति
किन्तु
तस्य अत्र धनपालस्य कृते चत्वारः पुत्राः सन्तानम् अस्ति प्रभूतम् ऐश्वर्यमपि अस्ति
हा इति इदानीं वयं चिन्तयामः सः प्रायशः तस्य जीवनं सुखमयम् इति चिन्तयामः. किन्तु कः किं वदति?
किन्तु ते पुत्राः न सद्गुणसम्पन्नाः विद्यावन्तः च. तस्य चत्वारः पुत्राः अपि तेषां गुणः सद्गुणः नास्ति.
ते सद्गुणेन न सम्पन्नाः. संयुक्ताः इत्युक्ते तेषां गुणः सद्गुणः इति न वक्तुं शक्नुमः.
विद्यावन्तः अपि नास्ति.
हा ते विद्यावन्तः अपि न सन्ति. न सन्ति ते विद्यावन्तः अपि न सन्ति. हा हा अस्तु अग्रे तत्र अरुणभगिनी अग्रे पठति वा? अरुणभगिनी अस्तु अस्तु भगिनि.
समीपस्थे ग्रामे विद्वान् कश्चन अस्ति सः.
न न न कुत्र 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 तत्र तस्मात् मम जीवनं
दुःखमयं जातम् अस्ति. वदति पुत्र अस्ति धनमस्ति अपि अहं सुखमय मम जीवनं सुखमयं नास्ति दुःखमयं
एव अस्ति दुःखमयमेव अस्ति. किमर्थं किमर्थं मम पुत्राः
दुर्गुणाः
न सन्ति विद्यावन्तः न सन्ति सद्गुणसम्पन्नाः अपि न सन्ति. अतः अहं सर्वदा दुःखम् अनुभवामि.
वदति समीपस्थे ग्रामे विद्वान् कश्चन अस्ति सः एव मत्तः अपि सुखी स्यात्
इति. तत्र वदति समीपस्थे ग्रामे पूर्वं यथा उक्तं समीप मम जीवनं तु सुखमयं नास्ति किन्तु भवान् सः जानाति खलु तत्र सुमतेः जिज्ञासा किम् इति जिज्ञासा का इति सः जानाति खलु जीवने परमसुखी कः इति ज्ञातव्यम् इति तस्य जिज्ञासा अस्ति. अतः सः वदति अहं तु तादृश परमसुखी नास्मि किन्तु यदि परमसुखी इति कः इति भवतः जिज्ञासा अस्ति अतः भवान् किं करणीयम् इत्युक्ते अत्र किं समीपस्थे ग्रामे विद्वान् कश्चन अस्ति आगच्छामि. हा तत्र एतावत् पञ्चमीविभक्ति दृष्टवन्तः खलु बहुत्र. हा तत्र सः अत्र सः एव मत्तः अपि सुखी स्यात् हा फ्रम् मी इति अर्थे सो हा मोर् देन् मी इति अर्थे फ्रम् मी हीस् मोर् हेपियर् देन् मी किन्तु तत्र मत्तः इति अर्थः तत् अव्ययमस्ति इति मन्ये मत्तः इति किन्तु फ्रम् मी इति अर्थे अत्र किम् अस्ति चेत् मम कृते तस्य जीवने अधिकसुखम् अस्ति इति इत्यर्थे सः एव मत्तः अपि सुखी स्यात् कम्पेर्ड् टु मी ही इस् प्रोबब्लि हेपियर् इति अर्थे मत्तः इति. समीचीनं भगिनि भवती प्रथमवारं न पठितवती खलु अतः लघुभागं दत्तवान् किन्तु किन्तु अग्रे पठितुम् इच्छति चेत् पठतु नो चेत् चिन्ता नास्ति. अस्तु अस्तु पठतु भगिनि.
सुमतिः विदुषः समीपं गत्वा अपृच्छत् सुमतिः
तत्र विदुषः इति अस्ति तत्र विद्वान् इति विद्वान् कश्चन विद्वान् अस्ति एतादृशपदं वयं न तस्य अभ्यासं वयं न कृतवन्तः, किन्तु एकवारं वदामि. तत्र चिन्तयामः, तत्र सुमतिः विदूषः समीपं गत्वा अपृच्छत्. इदानीं विदूषः स्थाने रामः अस्ति. यदि भवती वक्तुमिच्छति समीपं गच्छतु, किं कीदृशं वर्णनं भवति भवत्याः?
रामस्य समीपं.
हा, रामस्य समीपं गत्वा इति. तत्र षष्ठी भवति. एतद् विदूषः अपि षष्ठी विभक्ति अस्ति. हा, विद्वान् इति प्रथमविभक्तिरूपम्. इदानीं तत्र
पुंलिङ्गः विद्वत् शब्दः.
हा, सत्यं सत्यं भगिनि. हा, विद्वत् शब्दः, विद्वत् शब्दः, विद्वान् विद्वांसौ विद्वांसः इति. हा, तत्र पञ्चमी अपि षष्ठी, विदुषः विदुषः इति. सप्तमी अस्ति विदुषी इति. हा, अतः विदुषः समीपं, तस्य विद्वान् अस्ति, तस्य समीपं गत्वा अपृच्छत्.
किं भवतः जीवनं सुखमयमस्ति इति. सः सदा विद्वान् अवदत्, वेदशास्त्रादिषु मम विशेषगतिः अस्ति. अहं वेदशास्त्राणि सर्वाणि जानामि.
विशेषगतिः इत्युक्ते विशेष, अहं निपुणः अस्मि वेदशास्त्रेषु आदिषु, मम निपुणता अस्ति. तत्र गतिः, विशेषगतिः अस्ति. तत्र
जानामि
तस्य अध्ययनं कृतवान् अस्मि इति.
किन्तु सम्मानादिकं कदापि न प्राप्तं मया. वदति अहं विद्वान् परन्तु राजा
तत्र विद्वान् अस्ति चेत् किं तत्र सम्मानं, तस्य सम्मानादिकम् अस्ति न वा इति प्रश्नः भवति. एषः वदति मम कदापि सम्मानादिकं न प्राप्तं मया, अहं न सम्मानं कदापि न प्राप्तवान्. कस्मात् अथवा कस्मात् सम्मानादिकं? तत्र राजा इति नास्ति. तत्र कोऽपि जानाति वा राजन् नकारान्तपदम् अस्ति. तत्र राज्ञः इति प्रायः पञ्चमीभक्तिरूपम् अस्ति. हा, राज्ञः, राज्ञः, राज्ञः इति पञ्चमी विभक्ति. हा, राज्ञात् तत्र राजा अस्ति, तस्मात् इति वक्तुम् इच्छामश्चेत् राज्ञः सम्मानादिकम् अहं कदापि न प्राप्तवान्. अग्रे भगिनि.
सम्पत्तिसुखमपि नास्ति मम जीवने.
हा, इत्युक्ते अहं धनवान् नास्मि इति वदति.
एतस्य ग्रामस्य प्रमुखः सुखी स्यात्. एतस्य ग्रामस्य
तत्र कीदृशसम्बन्धः तत्र
विशेषणविशेष्य
एतद् ग्रामं तस्य षष्ठी विभक्ति. एतस्य ग्रामस्य कः प्रमुखः?
प्रमुखः
मुख्याधिकारी, ग्रामस्य मुख्याधिकारी सः सुखी स्यात्. कस्मात् कारणात् सः सुखी स्यात्?
यतः सम्मानः, धनम् अधिकारः च अस्ति
तस्य. तस्य किं किम् अस्ति? प्रमुखः यः अस्ति तस्य किं किम् अस्ति? सम्मानः अस्ति तस्य, धनमस्ति, अधिकारः अपि अस्ति. सः केवलं धनवान् इति न, सम्मानं प्राप्तवान् इति न, किन्तु सः, तस्य अधिकारः अपि अस्ति खलु, अतः प्रायशः सः मत्तः अपि सुखी इति इति सः चिन्तयति. हा समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे
सुखी शब्दस्य
सुखिन् सुखिन् इति प्रायशः अस्ति भगिनि. यस्मिन् सुखः सुख अस्ति तत्र धनिन् इति इनि प्रत्यय अस्ति. हा तत्र इनि इनि प्रत्यय, यस्मिन् यस्य अथवा यस्मिन् धनम् अस्ति सः धनी, यस्मिन् गुणम् अस्ति सः गुणी. हा यस्मिन् सुखम् अस्ति अथवा यस्य सुखम् अस्ति सः सुखी. सुखी इति प्रथमविभक्तिरूपम् एव अस्ति. तत्र योगी नकारान्तपदम् अस्ति, विद्यार्थिन्. हा यस्य विद्यार्थी, विद्यार्थिनिति कीदृशपदं तत्र. यस्य अर्थः जीवने विद्या अस्ति सः विद्यार्थी. अर्थः इत्युक्ते कः?
धनं
न, केवलं धनम् इति एकम् अस्ति. किन्तु किन्तु तत्र हा हा तत्र जानीमः खलु संसारे किं धर्म अर्थ काम मोक्ष इति अस्ति खलु. अतः तस्मिन् अर्थः अन्तर्भूतः अस्ति इत्युक्ते फोर् गोल्स्. अर्थः अपि गोल्, तस्य प्रत्येक अर्थः अपि गोल् इति अस्ति. अतः विद्या यस्य अर्थः अस्ति सः विद्यार्थी, अथवा यस्याः अर्थः विद्या अस्ति सा विद्यार्थिनी इति.
किमर्थम् इति तत्र,
हा हा सत्यं सत्यं, किमर्थं हा इति, टुवर्ड्स् वाट्, फार् वाट् इति तादृश. हा सत्यं, हा तादृश अर्थः अत्र अपि अस्ति भगिनि. सुखी इत्युक्ते यस्य अथवा यस्मिन् सुखम् अस्ति सः सुखी इति. उमा भगिनि, इदानीं भवती एव अग्रे पठति वा? हा इदानीं तत्र अन्तिमभागः समीचीनमेव अस्ति, सुमतिः इति.
अतः सः मत्तः अपि सुखी इति.
हा मत्तः मम कृते तस्य सुखम् अधिकम् इति अर्थे.
ओके, मत्तः
मत्तः
पञ्चमी अस्ति न,
तादृश अर्थे मत्तः अव्ययम् अस्ति. मत्तः इत्युक्ते तत्र पञ्चमी विभक्ति अहं पदस्य पञ्चमी विभक्ति अस्ति मत् मतः मतः, किन्तु अत्र मत्तः इति तकारस्य द्वित्वम् अस्ति. हा तत्र पञ्चमी विभक्ति तादृश अस्ति, हा तादृश अस्ति. कम्पेर्ड् फ्रम् मी, फ्रम् मी हि इस् बेटर् इति, हि इस् मोर् हेपि इति अर्थे. मत्तः इति न, अहं प्लस् तः तत्र मत्तः अस्मत् प्लस् तः मत्तः इति.
सुमतिः ग्रामप्रमुखं दृष्ट्वा अपि अपृच्छत्. ओके, तत्र अपि गतवान्, पृच्छति तम् अपि पृच्छति किं भवान् प्रमुखी, नो
परमसुखी, प्रमुखः सः प्रमुखः अस्ति किन्तु सः परमसुखी इति प्रश्नः इदानीं.
तदा ग्रामप्रमुखः अवदत् मम
तत्र भगिनि, तत्र भागत्रयं खण्डत्रयम् अस्ति तत्र. सम्मान सत्यं तत्र प्रथमतया सम्मानं तदनन्तरं धनम्
अधिकारम् आदिकं स्यात्
स्यात् इत्युक्ते पूर्वं
सर्वमस्ति
तत् विद्वान् उक्तवान् खलु प्रमुखस्य सम्मानः धनम् अधिकारः च अस्ति इति एषः अङ्गीकरोति आमां मम सम्मानधनाधिकारादिकं स्यात् एतत्तु अस्ति किन्तु
पत्नीपुत्रादयः अधीनाः अधिकारिणः च न मम विधेयाः विधेयाः अर्थं न जानामि
विधेयाः इत्युक्ते अत्र अहं चिन्तयामि यः एषः किमपि वदति ते तस्य वाक्यं न अनुसरन्ति ते ते सर्वे स्वतन्त्राः सन्ति एषः अधिकारः प्रमुख अधिकारः एतत् वदति अस्तु ग्रामे एतत् एतत् करोतु इति कोऽपि न शृणोति कोऽपि न अनुसरति गृहे
सः महोदयः अधिकारी अस्ति
किन्तु
तस्य
किन्तु तादृशपरिस्थितिः अस्ति तस्य अपि केवलं ग्रामे न केवलं तत्र अधिकारकार्यस्थले तादृशपरिस्थितिः न अपि तु गृहे अपि पुत्रादयः पत्नी सर्वे तस्य विधेयाः न सन्ति
तस्य विधेयाः इत्युक्ते
वचनं न शृण्वन्ति ओबीडियन्ट् इति तादृशार्थे
सः य करोति अथवा
एषः किं वदति एषः किमपि वदति किन्तु ते तं न अनुसरन्ति
अनुसरन्ति
महोदय पत्नीपुत्रादयः अधीनाः इत्युक्ते किं महोदय
न तत्र पत्नीपुत्रादयः एकं तत् गृहविषयः तदनन्तरं
पत्नी अपि च पुत्रः
पुत्रादयः पुत्रः पुत्री श्वशुः कोऽपि गृहे यः कोऽपि भवतु ते सर्वे तत्र अन्तर्भूताः तदनन्तरं कार्यस्थाने अधीनाः अधिकारिणः अधीनाः इत्युक्ते तत्र श्रेणी अस्ति खलु एषः प्रमुख अधिकारी तस्य अधौ अधीनाः अधिकारिणः सन्ति एषः केवलम् एकः अधिकारी इति नास्ति खलु तत्र अनेकाः अधिकारिणः सन्ति खलु न एकनिमिष भगिनि तत्र एषः अधिकारी किन्तु अन्ये अधिकारिणः अपि सन्ति खलु ते किं ते एतस्य उपरि सन्ति वा अथवा एतस्य अधौ सन्ति वा
अधीनः अधिकारिणः
अधीनः इत्युक्ते किम्
अधीनाः
तत् बहुवचने अस्ति अधीनः एकवचने किम् अस्ति अधः तस्य अधः इत्युक्ते लोवर् सर्वेण्ट्स् मै अदर् आफीसर्स् लोवर् आफीसर्स् इति सबोर्डिनेट्स् अधीनाः अधिकारिणः अतः कार्यस्थाने अपि सर्वे मम विधेयाः न सन्ति अतः सः किं महोदय सत्यं अत्र अधीनः इति अस्ति सत्यं महोदय तस्य अधः सत्यं महोदय, तत्र मम विधेयाः न सन्ति ते सर्वे, अतः तस्य सम्मानमस्ति, धनमस्ति, अधिकारित्वम् अपि अस्ति, किन्तु किं किमपि नास्ति इति. सर्वमस्ति किन्तु किमपि नास्ति, अतः सः किं वदति?
तस्मात् सन्तृप्तिः नास्ति मम जीवने.
हा, अतः अहं परमसन्तृप्तः अहं नास्मि.
अहं तु न,
अहं तु न, सन्तृप्तिः नास्ति मम जीवने. हा, तस्मात् कारणात्. हा,
समीपस्थे ग्रामे सुमतिः नाम कश्चन अस्ति. What is it? That, oh, gol gol firke, it comes back to the same.
Ha, ha, satyam, satyam. Ha.
Ha. Hmm. Satu avivahitaha. Oh, ha. Paramasukham avivahitaha asti chet.
Iti esha chintaya. Etasya chintanam tadrusham asti.
Ha, kalu. Paropakari.
Ha, paropakari.
Bhikshana jivi cha. Ha.
भिक्षान्नेन जीवनं करोति, निर्वहति इति भिक्षान्न जीवी. तत्रापि जीवी इति तादृश जीवी तत्र रूपं किं, तदपि नकारान्ते एव भवति इति मन्ये. जीविन् इति वा अथवा किमस्ति तत्र द्रष्टव्यमस्ति?
जीवी यदा अहं योगी स्वीकरोमि, योगी योगिनौ योगिनः, जीवी जीविनौ जीविनः
इति चिन्त्यम् जीविन् एव अस्ति. अस्तु, सत्यम्, अस्तु, समीचीनम्, अस्तु. परोपकारिन् अपि, तदपि नकारान्तपदम्. अविवाहितः, तद् विशेषणम् अस्ति.
सर्वे चिन्तयन्ति विवाहं करोति चेत् सुखं गतम्.
न न, तत् विवाहस्य पूर्वं तादृशचिन्तनं नास्ति, विवाहानन्तरं तादृशचिन्तनम् इति सर्वे चिन्तयन्ति. किन्तु तत्र एतत् केवलं समाजे एतादृशचिन्तनम् अस्ति इति सर्वे चिन्तयन्ति. अस्तु,
ओके, अन्तिमवाक्यम्.
अतः सः एव
अन्यस्य मुखात् स्वस्य प्रशंसां श्रुत्वा सुमतिः सन्तृप्तिं प्राप्य ततः निर्गतवान्. ओके,
तत्र किं किम् अस्ति? तत्र पञ्चमीविभक्तिरूपं, पञ्चमीविभक्तिरूपं
मुखात्,
मुखात् एकम् अपि
ततः,
ततः अपि, ततः अपि तस्मिन् अर्थे एव अस्ति. हा, पञ्चमी ततः. अस्तु, स्वस्य प्रशंसां, प्रशंसाम् इति विभक्ति का तत्र?
द्वितीया,
कर्मपदं, कर्मपदं. श्रुत्वा किं? श्रुत्वा प्रशंसां, श्रुत्वा सुमतिः सन्तृप्तिं प्राप्य लभन्तं ततः निर्गतवान्, निर्गतवान् इति. समीचीनम्. अस्तु, इदानीं सुखस्य विषये किञ्चित् ज्ञातवन्तः खलु? हा, तत्र आङ्ग्लभाषायाम् अस्ति खलु, तत्र किं ग्रास् इस् ग्रीनर् आन् दि अदर् सैड् इति अर्थे, तादृशार्थे अत्र वृत्तमय कथा अस्ति. तत्र सुमतिः इति आरम्भतः अस्ति, तदनन्तरम् अन्ते अपि सुमतिः एव आगच्छति, तस्य विषये एव आगच्छति. अस्तु
महोदय.
हा,
प्राप्य इति कीदृशपदं महोदय?
लभन्तम्, आगत्य, आगत्य, आगत्य इति. गच्छति, गत्वा, गच्छति, गत्वा,
गत्वा.
उपसर्ग अस्ति चेत् अ इति उपसर्ग अस्ति, अतः आगच्छति, आगत्य. तत्र प्र इति प्र आप्य किं भगिनि?
प्राप्नोति इति प्राप्य.
सत्यं, सत्यं, सत्यं.
प्राप्नोति आप् धातुः,
आप् धातुः, अतः प्राप्य इति ल्यबन्तरूपं. प्र आप् आप्नोति, उपसर्ग अस्ति, अतः ल्यबन्तरूपं भवति तत्र प्राप्य इति. अन्य प्रश्नः अस्ति वा अस्मिन्, अस्य अस्य अत्र कथायाः विषये?
ग्रामः, ग्रामः इति पुल्लिङ्गपदं खलु महोदय?
ग्रामं
इति चिन्तितवान् भगिनि.
ग्रामः नपुंलिङ्गशब्दमेव. गृहं
ग्रामः इति पुल्लिङ्गशब्दम् इति अहं चिन्तयामि.
ग्रामः. ओ अस्तु अस्तु भगिनि, धन्यवादः. हा गृहं ग्रामम्. अस्तु अस्तु, धन्यवादः भगिनि. सत्यं सत्यं, ग्रामः ग्रामः
ग्रामं.
हा धन्यवादः भगिनि. आमामां क्षम्यतां. हा अहं ग्रामम् इति बहुवारम् उक्तवान् खलु. हा हा सत्यम्. अस्तु ग्रामः, हा पुल्लिङ्गपदम् अस्ति. धन्यवादः भगिनि. अस्तु, हा अन्यप्रश्नः अत्र. सर्वे अवगच्छति वा कथाम्? अस्तु तर्हि तत्र अन्ये अन्ये के आगतवन्तः नूतनतया? नरेश महोदय नमस्कारः. गीताञ्जलि भगिनी नमस्कारः. हा चिन्ता मास्तु भगिनि, चिन्ता मास्तु. हा अस्तु, इदानीं तत्र अन्या कथा अपि अस्ति अग्रिमे पुटे. एषा लघुकथा अस्ति तत्र अग्रिमे पुटे. तत्र कथाद्वयमस्ति. बालभास्करः इति एका कथा अस्ति, किन्तु तस्य पार्श्वे किं स्वर्गसुखेन इति अस्ति. तद् पठामः अद्य. अद्य कथामयमस्ति अद्य. कथामयः वर्गः अद्य. अस्तु तत्र हा नरेश महोदय एतावत् न पठितवान् खलु, भवान् पठति वा? मधुसूदन महोदय भवानपि पठितुम् इच्छति वा कथाम्? अस्तु 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 अस्तु, चिन्ता मास्तु चिन्ता मास्तु. अस्तु नरेश महोदय, कथा अस्ति वा भवतः पार्श्वे? अस्तु अस्तु, अत्र द्वितीये पुटे किं स्वर्गसुखेन इति कथा.
किं स्वर्गसुखेन? मुद्रलः कश्चन महर्षिः उच्चवृत्त्या.
तत्र उच्चवृत्त्या, उच्चवृत्त्या इति
उच्चवृत्त्या जीवति स्म सः. उच्चवृत्तिः नाम कृषिकाणां क्षेत्रेषु यानि धान्यानि पतितानि भवन्ति तेषां सङ्ग्रहतः जीवनयापनम् एवम् उच्चवृत्त्या प्राप्तात् धान्यात् सः अतिथीनां सत्कारं करोति स्म. उच्चवृत्त्या धान्यं न लब्धं चेत् परिश्रमेण वा सम्पाद्य अतिथीं सत्करोति स्म सः.
हा अस्तु महोदय. गीताञ्जलि भगिनी अग्रे.
आं महोदय. दूर्वासाः मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् इच्छन् षड्वारं मृदुलस्य आश्रमम् आगतः.
ओ तत्र मुद्रणदोषः अस्ति भगिनि, मुद्गलस्य एव. हा
आ मुद्गल एव. क्षम्यतां महोदय,
तत्र मुद्रणदोषः अस्ति. हा हा.
दुर्वासाः मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् इच्छन् षड्वारं मुद्गलस्य आश्रमम् आगतवान्. तेषु सर्वेषु सन्दर्भेषु मुद्गलस्य एव जयः अभवत्.
अग्रे.
एषा वार्ता देवैः ज्ञाता
ज्ञाता.
सन्तुष्टाः ते मुद्गलं स्वर्गं प्रति आनेतुं विमानं प्रेषितवन्तः. स्वर्गं प्रति नेतुम्
आगतान्
स्वर्गं प्रति नेतुम् आगतान् देवदूतान् पृष्टवान् मुद्गलः स्वर्गे किम् अस्ति अति इति किम् अस्ति इति सकलानि भोगभाग्यानि तत्रैव सन्ति कल्पवृक्षः कामधेनुः च स्वर्गे एव सः अत्र भवता यथा उञ्चवृत्तिः क्रियते तथा तत्र करणीयं नास्ति एव देहश्रमः करणीयः एव नास्ति केवलं स्वर्गमुखं
स्वर्गसुखं
केवलं स्वर्गसुखम् अनुभूयते तत्र इति उक्तवन्तः देवदूताः तदा मुद्गलः दृढस्वरेण उक्तवान् स्वर्गे परिश्रमस्य अवकाशः एव नास्ति वा तर्हि भवतां स्वर्गः मास्तु मम अहम् अत्रैव तिष्ठामि परिश्रमात् यः आनन्दः प्राप्यते सः स्वर्गसुखात् अपि
श्रेष्ठतरः
इति
हा इति धन्यवादः भगिनि अस्तु समीचीनमस्ति हा तत्रापि विषयः कः इत्युक्ते पञ्चमीविभक्तिरूपं तत्र द्रष्टुं शक्नुमः तत्र अन्य कोऽपि पठितुम् इच्छति किन्तु एतावत् न पठितवान् अथवा पठितवती चेत् कृपया वदतु भानुचैतनी महोदय हा नमस्कारः भवान् जानाति वा कुत्र स्मः इति
न महोदय
अस्तु अस्तु तत्र कथां प्रेषितवान् अहम् ईमेल् द्वारा स्मरणपत्रे अस्ति तत्र द्वितीये पुटे किं स्वर्गसुखेन इति कथा अस्ति अस्तु अस्तु तर्हि तत्र कः कथायाः विषये कः वक्तुम् इच्छति तत्र शुभा भगिनी किञ्चित् वदति वा तत्र
आं महोदय मुद्गलः कश्चन महर्षिः मुद्गलः इति एकः महर्षिः अस्ति उञ्चवृत्त्या जीवति स्म सः तस्य वृत्तिः उञ्चवृत्ति इति तत् किम् इति अहं न जानामि
अग्रे 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 उक्तम् अस्ति उञ्चवृत्त्या इति उञ्चवृत्त्या उञ्चवृत्तिः इति भवति तत्र उञ्चवृत्तिः इति लिङ्गं किम् उञ्चवृत्तिः इति स्त्रीलिङ्गम् उञ्चवृत्त्या इति तस्य तृतीया विभक्ति समीचीनं भगिनि हा सः उञ्चवृत्त्या जीवति स्म
भूतकालरूपम् उञ्चवृत्तिः नाम कृषिकाणां क्षेत्रेषु यानि धान्यानि पतितानि भवन्ति तेषां सङ्गृहतः जीवनयापनम् उञ्चवृत्तिः
इत्युक्ते किं
कृषिकाणां षष्टिविभक्ति कृषिकस्य कृषिकाणां क्षेत्रेषु यानि धान्यानि पतितानि
भवन्ति
पतितानि भवन्ति तेषां सङ्गृहतः जीवनयापनं क्षेत्रेषु कृषिकाणां क्षेत्रेषु धान्यानि पतन्ति तानि स्वीकृत्य सः
जीवनं निर्वहति तत्र सः किं साधारणधान्यं सः स्वीकरोति वा
न महोदय
हा केवलं यानि धान्यानि पतितानि केवलं तान् स्वीकृत्य सङ्गृह्य तान् सङ्गृह्य ततः अथवा तस्मात् जीवनयापनं सः करोति उञ्चवृत्तिः इत्युक्ते एषः एव एषा एव समीचीनं भगिनि
अत्र विवरणं ददामि वा यानि धान्यानि पतितानि पतितानि विशेषेण विशेष धान्यानि पतितानि.
सत्यं भगिनि. हा अपि अन्यत् किमपि अस्ति वा तत्र?
नास्ति महोदय.
नास्ति. हा तत्र क्षेत्रेषु सप्तमी बहुवचनं.
सप्तमी बहुवचनं कृषिकाणाम् इति षष्टि बहुवचनं.
बहुवचनं. हा यानि यानि धान्यानि पतितानि तत्र विशेषण विशेष्य भावः समीचीनं. तेषां सङ्ग्रह सङ्ग्रहः इति तेषाम् इत्युक्ते केषां?
धान्यानां.
हा धान्यानां सङ्ग्रह. ततः सङ्ग्रह सङ्ग्रहतः तत्र विभक्ति का? पञ्चमी भगिनी. हा तस्मात् तस्मात् इति सङ्ग्रहात् सङ्ग्रहात् सङ्ग्रहतः इति. हा जीवनयापनं. हा अग्रे भगिनि.
एवम् उञ्चवृत्त्या प्राप्तात् धान्यात् विशेषणविशेषभावम् अस्ति अत्र. उञ्चवृत्त्या तृतीयविभक्ति
तृतीयविभक्ति.
सः अतिथीनां सत्कारं करोति
करोति
स्म. अतिथीनाम् इति अपि
षष्टि. अतिथीनां
बहुवचनं षष्टि.
षष्टि बहुवचनं. तेषां सत्कारं
सत्कारम् एतानि धान्यानि स्वीकृत्य
एव तदपि सः कर्तुं शक्नुवन् एषः. केवलं तस्य जीवनयापनं न अतिथीनां सत्कारमपि सः करोति स्म. उञ्चवृत्त्या
अत्र अतिथीन् लिखितम् अस्ति.
अतिथीनाम् इति अस्ति भगिनि.
अतिथीन्
तत्र अन्ते अन्ते अस्ति. अन्तिमवाक्यं पठति वा भगिनि? न न तस्य पूर्वम् इदानीं शुभा भगिनी
उञ्चवृत्त्या धान्यं न लब्धं चेत् परिश्रमेण वा सम्पाद्य अतिथीन् सत्करोति स्म सः. यदि उञ्चवृत्त्या धान्यं न लभते सः परिश्रमं कृत्वा सम्पादनं करोति तेन अतिथीन् सत्करं करोति.
हा सम्पाद्य इत्युक्ते धनसम्पादनम् इति न धान्यसम्पादनं. हा धनसम्पादनं न. सः महर्षिः अस्ति अतः केवलं धान्यसम्पादनम् इति तत्र भवति. हा परिश्रमेण इति इत्युक्त्वा सः एव प्रायशः कृषिकार्यं कृत्वा इति तादृश अर्थे भवति इति मन्ये. न जानामि किन्तु ऊहा अस्ति केवलं. हा किन्तु सः अतिथीन् अपि सत्करोति स्म. तत्र अतिथीन् इति विभक्ति का? हा द्वितीयविभक्ति कर्मपदम् अतिथीन् अतिथीन् सत्करोति स्म. समीचीनं भगिनि धन्यवादः. अस्तु अग्रे तत्र उषा भगिनी वदति वा अग्रे?
आं महोदय. दुर्वासाः मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् इच्छन् षड्वारं मुद्गलस्य आश्रमम् आगतवान्. दुर्वासः इति एकः मुनिः मुद्गलस्य चित्तवृत्तेः परीक्षां
तत्र एतत् कुर्मः भगिनि. तत्र दुर्वासः आगतवान्
कुत्र आगतवान्?
आश्रमम् आगतवान्. मुद्गलस्य आश्रमं सः आगतवान्. कति वारं सः आगतवान्? षड्वारम् आगतवान्. किम् इच्छन् आगतवान्? किं कर्तुम् आगतवान् सः?
कर्तुम् आगतवान् इत्युक्ते मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् आगतवान्.
हा कर्तुम् इच्छन् अहम् एतस्य चित्तवृत्तेः इति विभक्तिका तत्र?
चित्तवृत्तेः पञ्चमी षष्टिविभक्ति.
हा षष्टिविभक्ति. चित्तवृत्तेः परीक्षां कस्याः परीक्षा? चित्तवृत्तेः परीक्षा परीक्षां तां परीक्षा परीक्षां कर्तुम् इति कर्मपदं भवति. कर्तुम् इति पदस्य
क्रियापदस्य
हा इच्छन् इति इच्छन् सः षड्वारम् एकवारं न वारं वारम् आगतवान् षड्वारम् आगतवान्. एकवारम् एतादृशपरीक्षा भवति चेत् किं वयम् उत्तीर्णता प्राप्नुमः वा? किन्तु तत्र षड्वारं मुद्गलस्य आश्रमं सः गतवान्. तेषु
आश्रमम् आगतवान् तेषु सर्वेषु सन्दर्भेषु मुद्गलस्य एव जयः अभवत्. षड्वारम् अपि
सः उत्तीर्णः अथवा उत्तीर्णता प्राप्तवान्
मुद्गलः उत्तीर्णः प्राप्तवान्
उत्तीर्णः अथवा उत्तीर्णता प्राप्त उत्तीर्णतां प्राप्तवान् इति प्रायशः अस्ति.
जयः अपि
जयः प्राप्तवान् जयः अभवत् जयं प्राप्तवान्
जयः
इति विशेषणं भवति मुद्गलस्य जयः अथवा मुद्गलः जय अस्तु मुद्गलस्य जयः अभवत् इति मुद्गलः जयं प्राप्तवान् तत्र तेषु सर्वेषु सन्दर्भेषु तत्र
सप्तमी विभक्ति तस्य तस्मिन् तयोः तेषु सप्तमी विभक्ति बहुवचनं सर्वेषु अपि बहुवचनं सन्दर्भेषु अपि बहुवचनं विशेषणविशेषमस्ति.
तत्र प्रथमाविभक्तिरूपं किम् अस्ति
तेषु इत्युक्ते
प्रथमाविभक्तिरूपं बहुवचने
तेषु महोदय
तेषु इति सप्तमीविभक्ति प्रथमाविभक्तिरूपं किम् अस्ति
सः तौ
ते सर्वे
सन्दर्भे
सन्दर्भाः
मुद्गलस्य एव
किन्तु ते सर्वे सन्दर्भाः किन्तु तत्र तेषु इत्युक्ते तत्र विशेषणविशेषभावः अस्ति खलु सन्दर्भाः इति अस्ति तस्य सप्तमी कुर्मश्चेत् तस्य पूर्वमपि सप्तमी भवति किन्तु प्रथमविभक्तिरूपं किम् अस्ति ते सर्वे सन्दर्भाः तस्य सप्तमीविभक्तिरूपम् अस्ति तेषु सर्वेषु सन्दर्भेषु मुद्गलस्य एव जयः अभवत्. अस्तु अग्रे
दुर्वासाः
इति तस्य नाम अस्ति
एकवचनं
दुर्वासः इति अपि श्रुतं दुर्वासाः अपि प्रायः
महोदय तत्र दुर्वासस् इति अस्ति प्रातिपदिकं दुर्वासाः इति अस्ति प्रथमाविभक्ति दुर्वासाः इति एव भवति
दुर्वासस् इति
द्विवचनं
बहुवचनं
दुर्वाससौ दुर्वाससः इति भवति
वेरि इरेग्युलर्
वासस् इति दुर्वास दुर्वास
सकारान्तपदमस्ति वा महोदय
वासस् इति वासस् इति क्लोत् दुर् इति बेड् क्लोत्स् दुर्वासस् इति तत्र भवति वस्
किन्तु तत्र प्रायशः अर्थभेदः अस्ति बेड् इति किमपि नास्ति तत्र
नामपि अस्ति दुर्वासमुनिः अपि अस्ति दुर्वासस् इति तदपि भवितुम् अर्हति दुर्वासाः
तत्र पदसमान अस्ति किन्तु महर्षेः नाम इति कृत्वा तत्र अन्यकोपि अर्थः भवति तत्र किन्तु व्याकरणदृष्ट्या सकारान्तपदं दुर्वासस् इति अस्तु महोदय
हिन्दुपुराण दुर्वास आल्सो नोन् दुर्वासस्
अस्तु तदेव अस्ति दुर्वास दुर्वासाः इति एव तस्य नाम
दुर्वासस् इति प्रथमविभक्तौ दीर्घः भवति दुर्वासः इति भवति खलु अन्तिमसकारस्य विसर्गः भवति परन्तु अहं न जानामि दुर्वासः
तत्र अपि स्यात् न जानीमः
न महोदय अत्र दत्तमस्ति दुर्वासाः इति दत्तमस्ति
समीचीनम् अस्तु महोदय अस्तु
महोदय अत्र दीर्घ अस्ति अपि च
दीर्घ
दीर्घ दीर्घ अस्ति
दूर्वास इत्युक्ते ह्रस्वास
तत्र महर्षेः नाम अस्ति अतः अहं न अहं किं तस्य तत्र व्याकरणदृष्ट्या तस्य नाम न परिशीलितवान् अहं किन्तु किन्तु सत्यं
तदपि सा कोपिष्ठ अस्ति अतः सर्वे दूरे वसति तस्मात्
इति सर्वे चिन्तनम् अस्ति किन्तु इति केचन चिन्तयन्ति किन्तु महर्षि अस्ति चेत् तादृश नास्ति ज्ञानी अस्ति सः अतः किन्तु तादृश अपि कथा अपि अस्ति अस्तु अस्तु तर्हि तत्र दुर्वासाः एव
व्युत्पत्तिः वदति वा
दुर्वासः इति
तस्य अहं न जानामि
सः दत्तात्रेय तस्य तत्र अत्रे महर्षेः पुत्रः दुर्वासः इति
अहं कुत्रापि अपठत् महोदय सः दुर्वा खादति इति
न तादृश इति नास्ति अहं न जानामि किन्तु तत्र प्रायशः किमपि न महोदय तत्र किमपि गम्भीर अर्थः भवति महत्त्वपूर्ण अर्थः भवति इति मन्ये किन्तु तत्र अत्रि महर्षेः त्रयः पुत्राः दत्तात्रेय अपि सोमः अपि दुर्वासा इति मन्ये तत्र कथा अस्ति खलु अनसूयाः कथा तत्र ब्रह्म विष्णु शिव आगतवन्तः इति वरं दत्तवन्तः इति तादृश अतः तत्र दुर्वास इति आगच्छति इति मन्ये तदेव सा एव एका एव कथा मया अश्रुतं दुर्वासविषये अस्तु
महाभारते अपि
सत्यं किन्तु तस्य मातापितरौ के इति प्रश्ने सति केवलं तत्रैव एषा कथामेव एतां कथामेव जानामि अस्तु तत्र अस्तु वदतु भगिनि एषा
एषा वार्ता देवैः
ज्ञाता
सन्तुष्टाः ते
न तत्र वक्तव्यमस्ति
एषा स्त्रीलिङ्गम् अस्ति वार्ता अपि स्त्रीलिङ्ग देवैः तृतीयभक्ति बहुवचनं ज्ञाता
इति तदेव वाक्यम् अन्यरीत्या वदामश्चेत् किं भवति देवाः एतां वार्तां श्रुतवन्तः अथवा ज्ञातवन्तः तत्र का वार्ता
दुर्वासः मुनिः
मुद्गलस्य जय मुद्गलं महर्षिः जयं प्राप्तवान् षड्वारं जयं प्राप्तवान् दुर्वासा महर्षेः परीक्षायां षड्वारं जयं प्राप्तवान् इति वार्ता देवैः ज्ञाता
सन्तुष्टाः ते मुद्गलं स्वर्गं प्रति आनेतुं विमानं प्रेषितवन्तः
देवाः
सन्तुष्टाः देवाः विशेषमस्ति मुद्गलं स्वर्गं प्रति आनेतुं
मुद्गलम् आनेतुं कुत्र आनेतुं स्वर्गं प्रति
आनेतुं विमानं प्रेषितवन्तः विमानम् इत्युक्ते जेट् एर्वेस्
अस्तु हा तत्र स्वर्गं प्रति तत्र आनेतुम् इति अस्ति, तत्र कर्मपदम् अस्ति वा आनेतुम् इति?
आनेतुं तुमन्
हा तुमन् रूपम् अस्ति किं आनयति इति क्रियापदं तत्र
चिन्तयामः
तत्र आने आनयति इति क्रियापदं
चिन्तयतु
अतः तत्र कर्मपदं किम् अस्ति तत्र
स्वर्गं
न न स्वर्गमानयति वा स्वर्गमानयति वा हा
विमानं
न न विमानं न मुद्गलं मुद्गलः एव तत्र कर्मपदं तम् आनेतुं खलु
मुद्गलं स्वर्गं
मुद्गलम् आनेतुं तत्र मुद्गलम् आनेतुं मुद्गलम् अस्ति आनयति विमानं किम् आनयति विमानं मुद्गलम् आनयति हा मुद्गलम् आनयति अतः मुद्गलं भवति कर्मपदं स्वर्गं प्रति इति तत्र कुत्र गच्छति कुत्र एता एषा क्रिया तस्य क्रियायाः विषयः अस्ति तत्र कुत्र आनयनं भवति स्वर्गं प्रति आनेतुं तत्र प्रेषितवन्तः प्रेषितवन्तः इति प्रेषयन्ति तत् क्रियापदं सकर्मकक्रियापदं वा
प्रेषितवन्तः
तत्र किं प्रेषितवन्तः इति प्रश्नः भवति खलु
विमानं प्रेषितवन्तः
हा तत्र विमानं कर्मपदं भवति समीचीनं हा समीचीनं भगिनि
विमानमपि कर्मपदमस्ति न महोदय
हा विमानम् अस्ति कर्मपदं प्रेषितवन्तः इति पदस्य हा किन्तु आनेतुम् इति पदस्य कर्मपदमस्ति
मुद्गलम्
हा मुद्गलम् अस्ति इति समीचीनं भगिनि
द्वे कर्मपदम् अस्ति तत्र
हा द्वे कर्मपदे स्तः तत्र अग्रिमं वाक्यमपि पठतु भगिनि
स्वर्गं प्रति नेतुम् आगतान् देवदूतान् पृष्टवान् मुद्गलः स्वर्गं प्रति नेतुम् आगतान् आगतान् इत्युक्ते किं पद
हा हा तत्र अस्तु 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 तत्र मुद्गलः अस्ति हा मुद्गलः अस्ति सः किं करोति सः पृष्टवान् कं पृष्टवान् देवदूतान् पृष्टवान् कीदृशदेवदूतान्
आगतान्
देवदूताः सन्ति ते कुत्र सन्ति ते मुद्गलस्य आश्रमम् आगच्छन्ति अतः वयं किं वदामः तत्र ते मुद्गलस्य देवदूताः मुद्गलस्य आश्रमम् आगताः आगताः ते सर्वे आगताः सन्ति तान् आगतान् देवदूतान् मुद्गलः पृष्टवान् तत्र आगतान् देवदूतान् विशेषभावः अस्ति
पदम्
आगतः पठितः पुस्तक पठितं पुस्तकं तत्र कर्मणि अर्थे इति तत्र गतवान् अहं पुस्तकं पठामि अहं पठितवान् तत्र किमस्ति कर्तृ अर्थे किन्तु किं पठितवान् अहम् एतत् पुस्तकं पठितवान् एतत् पुस्तकं मया पठितं पुस्तकं पठितं पुस्तकम् अतः तत्र आगताः देवदूताः ये आगताः आगताः देवता देवदूताः क्षम्यतां देवदूताः ये आगताः आगताः देवदूताः इति तान् मुद्गलं मुद्गलः पृच्छति इति कृत्वा मुद्गलः आगतान् देवदूतान् पृच्छति अथवा पृष्टवान् इति भवति
स्वर्गे किम् अस्ति इति
हा इति सः प्रश्नः करोति
मुद्गलः
पृच्छति स्वर्गे स्वर्गे किम् अस्ति इति सः प्रश्नं पृच्छति
देवदूतान्
पृच्छति हा समीचीनम् अस्तु भानुचति महोदय अग्रे पठति वा किञ्चित् एव अस्ति अत्र
आं महोदय तदा मुद्गलः तदा मुद्गलः दृढस्वरेण
तस्य पूर्वं किम् अस्ति इति किम् अस्ति इति किम् एषः पृच्छति स्वर्गे किम् अस्ति इति मुद्गलः पृच्छति. इदानीं देवदूताः वदन्ति
वदन्ति महोदय किम् अस्ति इति सकलानि भोगभाग्यानि तत्रैव सन्ति. कल्पवृक्षः कामधेनुः च स्वर्गे एव स्तः. अत्र भवता यथा उञ्चवृत्तिः क्रियते तथा तत्र करणीयं नास्ति एव. देहश्रमः करणीयः एव नास्ति. केवलं स्वर्गसुखम् अनुभूयते तत्र इति उक्तवन्तः देवदूताः.
अत्र किं किम् अस्ति किञ्चित् वदति वा?
किम् अस्ति इति
सः पृच्छति. किम् अस्ति इत्युक्ते अहं वयं वदामः सकलानि आश्चर्येण ते वदन्ति किमस्ति इति वा. कोऽपि एतादृशप्रश्नं न पृष्टवान् अथवा पृष्टवती एतावत् इति ते चिन्तयन्ति. सत्यं.
सकलानि भोगभाग्यानि सकलं भोगभाग्यम् इति नपुंसकलिङ्गं महोदय ते
बहुवचने अत्र
बहुवचनरूपमस्ति. सकलानि भोगभाग्यानि तत्र एव सन्ति.
तत्र किं भूलोके न सर्वम् अस्ति?
भूलोके केवलम् अल्पं भोगभाग्यं
भोगम् अस्ति. अत्र तत्र तु सर्वं सकलमपि तत्रैव सन्ति. सकलानि सर्व तत्रैव सन्ति.
किं ते इति विवरणं दत्तं महोदय. कल्पवृक्षः एकः, कामधेनुः स्वर्गे एव स्तः.
तत्र कल्पवृक्षः कामधेनुः तत्र कल्पवृक्षः इति इत्युक्ते किं?
कल्पवृक्षः यथा कल्पयति किं किम् इच्छति
यकोपि इच्छाम् इच्छां प्रकटयति यकोपि इच्छां प्रकटयति ताम् इच्छां पूरीकरोति.
कल्पवृक्षः वा कामधेनुः वा
तत्र
द्वयपि दातुं
शक्नोति. तत्र एकः एव भेदः अस्ति. तत्र एकं एकः चरति अन्यः तत्र चराचर इति अस्ति खलु. तत्र तदेव भेदः. तत्र कल्पवृक्षः वृक्षः अस्ति, एकस्थाने एव तिष्ठति, कामधेनुः सञ्चारं करोति तावदेव. किन्तु अस्तु अग्रे.
अत्र भवता यथा उञ्चवृत्तिः क्रियते भवता
उञ्चवृत्त्या एव जीवनं करोति तथा
तथा स्वर्गे तु करणीयं
नास्ति एव. तत्र उञ्चवृत्ति करणीयम् इति स्वर्गे करणीयम् इति
नास्ति.
सत्यं महोदय. करणीयं नास्ति एव. देहश्रमः
करणीयः एव नास्ति. उञ्चवृत्तिः केवलं न किमपि कोऽपि देहश्रमः तत्र करणीयः एव नास्ति.
करणीयः देहश्रमः तत्र विशेषणविशेष्यभावः
महोदय. तत्र करणीयः अपि तव्यत् प्रत्यये किं महोदय?
किन्तु अत्र विशेषणभावः अपि भवति खलु. तत्र करणीयः देहश्रमः इति एव नास्ति इति तत्र अनियत् तव्यत् इति कर्तव्यः करणीयः इति एव नास्ति. अन्ते महोदय केवलं
स्वर्गसुखम् अनुभूयते तत्र
इति ते वदन्ति देवदूताः वदन्ति. अग्रे महोदय.
तदा मुद्गलः दृढस्वरेण उक्तवान् स्वर्गे परिश्रमस्य अवकाशः एव नास्ति वा? तर्हि भवतां स्वर्गः मास्तु मम. अहम् अत्रैव तिष्ठामि. परिश्रमात् यः आनन्दः प्राप्यते सः स्वर्गसुखात् अपि श्रेष्ठतरः.
इदानीं मुद्गलः
महर्षि उत्तररूपेण प्रतिस्पन्दयति महोदय, दृढस्वरेण सः प्रतिस्पन्दयति इत्युक्ते तस्य बुद्धिः निश्चला अस्ति, वृत्ति धर्मानुसारं
सन्देह संशय किमपि नास्ति, कमपि नास्ति तत्र
तस्य वृत्ति अतिथिसर्कारम् एतत् सर्वं यत् करोति सः तस्य बुद्धिः
तस्मिन् विषये तस्य दृढविश्वासः अस्ति सत्यं महोदय. अतः स किं वदति
अनुभूयमानं स्वर्गे परिश्रमस्य अवकाशः एव नास्ति वा, सः रोदति परिश्रमस्य अवकाशः
अवकाशः इति तस्य अवकाशः एव नास्ति वा इति
विकल्पमपि नास्ति
तत्र. तर्हि
स्वर्गे सप्तमे
स्वर्गे सप्तमी
तर्हि भवतां स्वर्गः मास्तु मम.
तत्र भवताम् इति किम् अस्ति महोदय? तत्र
भवताम् इति द्वितीयविभक्ति महोदय,
भवतां स्वर्गः
षष्ठी अपि पञ्चमी
भवतः स्वर्गः
एकवचने बहुवचने
बहुवचने महोदय
तत्र तत्र केवलं
भवतां महोदय भवतोः भवतां
तत्र एकः अस्ति वा, तत्र एकः देवदूतः अस्ति वा?
द्वे न बहवः
दूताः इति आसीत् खलु, उक्तवन्तः देवदूताः इति, अतः बहुवचने अस्ति देवदूतः.
देवदूताः आगताः वा?
अतः भवतः इति न भवति, भवताम् इति षष्ठी बहुवचनरूपं
भवतां षष्ठी
स्वर्गः
भवतः भवतोः भवताम्
भवताम् अत्र बहुवचने भवतां स्वर्गः मास्तु मम तस्य
अत्रैव
अहम् अत्र एव तिष्ठामि
अत्रैव तिष्ठामि परिश्रमात् यः आनन्दः प्राप्यते परिश्रमकरणानन्तरं यः कोऽपि आनन्दं प्राप्यते
सः
स्वर्गसुखात् अपि सः आनन्दः स्वर्गसुखात् तोलनं करोति परिश्रमम् अपि श्रेष्ठतरः
श्रेष्ठतरः तत्र अग्रे एतादृशरूपं पश्यामः तरः तमः इति श्रेष्ठतरः श्रेष्ठतमः इति उत्तमः तरतमः इति आगच्छति
उत्तरः अपि अस्ति वा महोदय
तर तत्र तरतमः तरं तरः तमः
अस्ति वा
उत्तरः इति न किन्तु तरः तमः इति तत्र विशेषणं भवति अतः पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं नपुंसकलिङ्गरूपमपि भवति
उत्तमम् इति
उत्तमम् उत्तर इति प्रायशः उत्तमं प्रश्नः तु उत्तमम् उत्तमः अस्ति उत्तरम् इदानीं न जानामि
समाधानम् उत्तरम्
उत्तरम् अस्ति इति न जानामि अस्तु द्रष्टव्यमस्ति महोदय तत्र श्रेष्ठतरः इतोपि श्रेष्ठः एष इत्युक्ते परिश्रमात् यः आनन्दः भवति सः स्वर्गसुखस्य सुखात् श्रेष्ठः श्रेष्ठतरः तत्र स्वर्गसुखात् स्वर्गसुख तत्र किम् अस्ति तस्य अपेक्षया इति खलु अपेक्षया अस्ति चेत् स्वर्गसुखस्य अपेक्षया श्रेष्ठः इति वक्तुं शक्नुमः तत्र तरः न भवति
तरः महोदय यदि
तुलना अस्ति तुलना
द्वि द्विविषये तुलना अस्ति.
हा सत्यं सत्यं. हा तरः तरः सत्यं भगिनि सत्यं. हा सत्यं तरः अपि तमः इति किम् आङ्ग्लभाषायां वदामः सुपर्लेटिव् इति तादृश. हा कम्पेरेटिव् अपि सुपर्लेटिव्. हा श्रेष्ठतमः श्रेष्ठतरः अपि श्रेष्ठः इति. हा तत्र परिश्रमात् आनन्दः प्राप्यते, यः आनन्दः प्राप्यते सः स्वर्गसुखात् अपि श्रेष्ठतरः इति. तत्र बहुत्र पञ्चमी विभक्तिरूपं पश्यामः खलु तत्र. हा तत्र स्वर्गसुखात् परिश्रमात् अपि हा बहुत्र आसीत् इति मन्ये. हा अस्तु अतः एव
महोदय तत्र
वदतु महोदय.
परिश्रमात् स्वर्गसुखात् श्रेष्ठतरः इति वदति महोदय, तर्हि स्वर्गसुखात् किं श्रेष्ठतमम्?
न न न श्रेष्ठतमम् इति तत् तस्य उपरि किमपि नास्ति महोदय.
ब्रह्मप्राप्तिः.
अस्तु 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 तस्य उपरि किमस्ति इति. अस्तु हा किन्तु तत्र
परिश्रमात् उपरि किमस्ति महोदय?
हा परिश्रमात् उपरि केवलम् उद्गलं महर्षिं तस्य आश्रमं गत्वा एव प्रश्नं करणीयं. सः जानाति
महर्षयः समाधानं ददति मोक्षः एव.
हा प्रायशः किन्तु स्वर्गस्य उपरि अस्ति परिश्रमस्य. परिश्रमात् यः आनन्दः लभ्यते सः स्वर्गसुखात् अपि श्रेष्ठतरः इति. अस्तु तस् कोऽपि प्रश्नः अस्ति वा
महोदय? इति वाता आश्रमे एव भवति न महोदय? न उद्गलः न गतवान् स्वर्गम्.
सत्यं भगिनि अहं न जानामि किन्तु किन्तु प्रश्नः सम्यक् एव अस्ति. वयं चिन्तयामः खलु भारतीयसंस्कृते किं चिन्तनं, तत्र एतादृशः महर्षेः ते सर्वदा भवन्ति इति खलु. हा तत्र एषा अस्ति चेदपि वयं तस्य दर्शनभाग्यम् अस्माकं भवति इति किमपि नास्ति खलु. हा अतः प्रायशः स अस्ति तस् कः दृष्टवान् अस्ति अथवा दृष्टवती अस्ति सः अथवा सा दर्शनं प्राप्तुं शक्नुवान् अथवा शक्नुवति. हा
शक्नोति
इति तस्य किं
परिश्रमेण कार्यं
करणीयम् अतः एव जन्मं दत्तमस्ति.
परिश्रमम् एव स्वर्गम् इति कथा.
सत्यं सत्यं भगिनि सत्यं. हा सत्यं विना
परिश्रमस्ति महोदय तस्य वृत्तान्तमेव अस्ति एतत्.
सत्यं महोदय सत्यं. हा अस्तु सर्वे कथाम् अवगतवन्तः इति मन्ये. अस्तु 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 तत्र सन्देशः इति संस्कृतभारत्याः पत्रिका अस्ति, तस्यां पत्रिकायाम् अनेकाः कथाः सन्ति. बहु लाभः अस्ति तेषां पठनेन. अस्तु तर्हि समयः अपि जातः. पञ्चमविभक्तिप्रयोगः दृष्टवन्तः इति. अस्तु तर्हि विरमाम, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः.
धन्यवादः.
नमस्कारः. नमस्कारः.
धन्यवादः.
सन्देश
ध्वनिमुद्रणं
हौ डिड् यु गेट् इट्?
एकनिमिष ध्वनिमुद्रणम् इदानीं.